ऐभिरग्ने तु भोगिरो विश्वेभिस्तोमाबीतये देवेभिर्याहि यक्षी च आत्मातन्वाहूषदघ्नन्ति विप्रतेधियाः देवेभिरग्नागहि इन्द्रवायोर्बृहस्पतिम् मित्राग्निम् पूषणम् भगम् आदित्यान्मारुतम् गणम् प्रवोभ्रियन्त इन्दवो मत्सरामादयिष्टवाः दत्सा मध्वश्चमूषदाः ईळते त्वामवस्य वः कण्वासो वृत्तबलिहिषः हविष्मन्तो अलङ्कृताः धृतवृष्टामनोयुजो ये त्वा वहन्ति मह्नायः आदेवा सोमपीतये तान्यजत्राङ्कृतामृधोऽग्नेपत्नीमतस्कृधि मध्वस्वजिह्वपायय ये यजत्रायीढ्यास्ते ते पिबन्तु जिह्वया मधोरग्नेव षट्कृति आगीम् सूर्यस्य रोचनाद्विस्वाम् देवाङ्कोषर्बुधाः दिप्रोः देहवक्षति विश्वेभिः सोम्यम् मध्वग्न इन्द्रेण वायुना पिबा मित्रस्य धामभिः त्वम् होतामनर्हितोऽग्ने यज्ञेषु सीदसि सेमन्ना अध्वरञ्ज युक्ष्वाह्यरुषीरथे हरितो देवरोहिताः ताभिर्देवा इहावः